अथ षष्ठोऽध्यायः प्रथमः पादः एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य नन्द्राः संयोगादयः पूर्वोऽभ्यासः उभे अभ्यस्तम् जक्षित्यादयः षट् तुजादीनां दीर्घोऽभ्यासस्य लिटिधातोरनभ्यासस्य संयगोः श्लौ चङि दाश्वान्साह्वान्मीढ्वांश्च शङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे बन्धुनिबहुव्रीहौ वचिस्वपि यजादीनाङ्किति ग्रहिज्या वै व्यधिवष्टिविचति वृश्चति पृच्छति भृज्यतीनाङ्गिति च लिट्यभ्यासस्योभयेषाम् स्वापेश्चङि स्वपिस्यमि व्येयाञ्यङि न वशः चायः के स्फायस्फीनिष्ठायाम् स्त्यः प्रपूर्वस्य द्रवमूर्तिस्पर्शयोश्यः प्रतेश्च विभाषाभ्यवपूर्वस्य श्रुतम् पाके प्यायःपि लिड्यङोश्च विभाषाश्वेः णौ च संश्चङोः ह्वः सम्प्रसारणम् अभ्यस्तस्य च बहुलम् छन्दसि चायः के अपस्पृधेथा मानृचुरानृहुश्चिच्युषेतित्याजः श्राताश्रितमाशीः आशीर्ताः न सम्प्रसारणे सम्प्रसारणम् लिटिवयो यः वश्चास्यान्यतरस्याङ्किते वेयः ल्यपि च ज्यश्च व्यश्च विभाषापरेः आदे च उपदेशेशिति नव्यो लिटि स्फुरति स्फुलत्योर्घञि क्रीङ्जीनाण्णौ सिद्ध्यतेरपारलौकिके मीनाति मिनोति दीङ्गाल्यपि च विभाषालीयतेः खिदेश्छन्दसि अपगुरोणमुलि चिस्फुरोर्णौ प्रजने वीयतेः बिभेतेर्हेतुभये नित्यं स्मयतेः सृजिदृशोर्झल्यमकिते अनुदात्तस्य च रुधुपदस्यान्यतरस्याम् शीर्षंश्छन्दसि ये च तद्धिते अचिशीर्षः पद्दन्नोमास्रन्निषसन्योषन्दोषञ्यकञ्छकन्नुदन्नासैच्छस्प्रभृतिषु धात्वादेशस्सः नो नः लोपोव्योर्वलि वेरपृक्तस्य हल्ङ्याभ्यो दीर्घात्सुतिस्य पृक्तम् हल एङ्हस्वात्सम्बुद्धेः शेच्छन्दसि बहुलम् ह्रस्वस्य पिति कृति तुक् संहितायाम् छे च आङ्माङोश्च दीर्घात् पदान्ताद्वा इको यणचि एचोयवाजावः वान्तो यि प्रत्यये धातोस्तन्निमित्तस्यैव क्षय्यजय्यौ शक्यार्थे क्रय्यस्तदर्थे भय्यप्रवय्ये चच्छन्दसि एकः पूर्वपरयोः अन्तादिवच्च षत्वतुकोरसिद्धः आद्गुणः वृद्धिरेचि एत्येधत्योट्सु आटश्च उपसर्गादृतिधातौ वासुप्यापिशलेः औतोंशसोः एङिपररूपम् ओमां ओश्च उस्य पदान्तात् अतो गुणे अव्यक्तानुकरणस्यात इतौ नाम्रेडितस्यान्त्यस्य तु वा नित्यमाम्रेडिते डाचि अकस्सवर्णे दीर्घः प्रथमयोः पूर्वसवर्णः तस्माच्छसो नः पुंसि नादिचि दीर्घाज्जसि च वा छन्दसि अमिपूर्वः सम्प्रसारणाच्च एङः पदान्तादति ङसि ङसोश्च ऋत उत् ख्यत्यात्परस्य अतोरोरप्लुतादप्लुते हसि च प्रकृत्यान्तः पादमव्यपरे अव्यादवद्यादवक्रमुरव्रतायामवन्त्वपस्युषु च यजुष्युरः आपो जुषाणो वृष्णो वर्षिष्ठे अम्बेऽम्बालेऽम्बिके पूर्वे अङ्ग इत्यादौ च अनुदात्ते च कुधपरे अवपथासि च सर्वत्र विभाषागोः अवंस्फोटायनस्य इन्द्रे च प्लुतप्रगृह्या अचि नित्यम् आङोऽनुनासिकश्छन्दसि इको सवर्णे चाकल्यस्य ह्रस्वश्च हृत्यकः अप्लुतवदुपस्थिते ईचाक्रवर्मणस्य दिव उत् एतत्तदोस्सुलोपोकोरनैसमासे हलि स्यश्छन्दसि बहुलम् सोचिलोपे चेत्पादपूरणम् सुट्कात्पूर्वः अडभ्यासव्यवायेऽपि सम्पर्युपेभ्यः करोतौ भूषणे समवाये च उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च किरतौ लवने हिंसायां प्रतेश्च अपाच्चतुष्पाच्छकुनिष्वालेखने कुस्तुम्बुरुणि जातिः अपरस्पराः क्रियासातत्ये गोष्पदं सेविता सेवितप्रमाणेषु आस्पदं प्रतिष्ठायाम् आश्चर्यमनित्ये वर्चस्केवस्करः अपस्करोरथाङ्गम् विष्किरः शकुनौ वा ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे प्रतिष्कषश्च कषेः प्रस्कण्वहरिश्चन्द्रावृषि मस्करमस्करिणौ वेणुपरिव्राजकयोः कास्तीराजस्तुन्दे नगरे कारस्करो वृक्षः पारस्करप्रभृतीनि च संज्ञायाम् अनुदात्तं पदमेकवर्जम् कर्षात्त्वतो घयोऽन्त उदात्तः उञ्छादीनाञ्च अनुदात्तस्य च यत्रोदात्तलोपः धातोः चितः तद्धितस्य कितः तिसृभ्योजसः चतुरशसि सावेका च तृतीयादिर्विभक्तिः अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे अञ्चेश्छन्दस्य सर्वनामस्थानम् ऊडिदं पदाद्यपुम्रैद्युभ्यः अष्टनो दीर्घात् शतुरनुमो नद्यजादि उदात्तयणो हल्पूर्वात् नोङ्धात्वोः ह्रस्वनुड्भ्यां मतुप् नामन्यतरस्याम् ज्ञाश्छन्दसि बहुलम् षट्त्रिचतुर्भ्यो हलादिः झल्युपोत्तमम् विभाषाभाषायाम् नगोष्वंसाववर्णराडङ्कृङ्कृद्भ्यः दिवो झल् नृचान्यतरस्याम् तित्स्वरितम्। तास्यनुदात्तेनिददुपदेशाल्लसार्वधातुकमनुदात्तमन्विङोः आदिश्चोऽन्यतरस्यां स्वपादिहिंसामच्यनिटे अभ्यस्तानामादिः अनुदात्ते च सर्वस्य सुपे भीह्रीभ्रुः मदजनधनदरिद्रा जागरां प्रत्ययात् पूर्वं पिते लिते आदिर्नमूल्यन्यतरस्याम् अचः कर्त्रयके स्थलि च सेटीडन्तो वा ञिनित्यादिर्नित्यम् आमन्त्रितस्य च पथिमथोः सर्वनामस्थाने अन्तश्च तवै युगपत् क्षयो निवासे जयः करणं वृषादीनाञ्च संज्ञायामुपमानं निष्ठा च द्व्यजनात् शुष्कधृष्टौ आशितः कर्ता रिक्ते विभाषा जुष्टार्पिते च छन्दसि नित्यं मन्त्रे युष्मदस्मदोर्ङसि ङयि च यतो नावः ईडबन्दवृषं सदुहाम्न्यतः विभाषावेण्विन्धानयोः त्यागरागहासकुहश्वठक्रथानाम् उपोत्तमं रिते चङ्यन्यतरस्यां मतोः पूर्वमात्संज्ञायां स्त्रियाम् अन्तोवत्याः ईवत्याः चौ समासस्य एकाचश्चायोल्यपि च ये च क्षय्यजय्यावकः सवर्णे अवपथा हिंसायामनुदात्तस्य विभाषा क्षय ईवत्या स्त्रीणि इति प्रथमः पादः।